चतुर्विभूत्याय श्रीभुवानुवाच परं भूय प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमं यज्ञत्वामनय सर्वे परां सिद्धिमितो गता इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागता सर्वेऽपि नोपजायन्ते प्रलयेन व्यथन्ते च मम यो निर्महद्ब्रह्म अस्मिन् गर्भं दधाम्यहं सम्भवः सर्वभूतानां ततो भवति भारत सर्वयोनिषु कौन्तेय मूर्तय सम्भवन्ति या तासां ब्रह्म महद्योनि रहं बीजप्रदपिता सत्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः निबध्नन्ति महाबाहो देहे नमव्ययम् तत्र स त्वं निर्मलत्वात् प्रकाशकमनामयम् सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानभ रजोरागात्मकं वेद्धि तृष्णासङ्गसमोद्भवम् तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनां तमस्त्वज्ञानजं वेद्धि मोहनं सर्वदेहिनां प्रमादलस्य निद्रावे सन्निबध्नाति भारत सत्वं सुखे संजयति रजकर्मणि भारत ज्ञानमावृत्य उत्तम प्रमादे सञ्जयत्युत रजस्तमश्चाभिभूय सत्वं भवति भारत रजसत्वं तमस्तैव तमः सत्वं रजस्तथा सर्वद्वारेषु देहेषु प्रकाश उपजायते ज्ञानं यदा तदा विद्याभिवृद्धं सत्त्वमेत्युत लोभ प्रवृत्तिरारम्भ कर्मणामशमस्त्रिया भगस्येतानि जायन्ते विवृद्धि भरतर्षभ अप्रकाशो प्रवृत्तिश्च प्रमादो मोह एव तमस्येतानि जायन्ते विवृद्धि कुरु नन्दन सुरासक्ति प्रवृद्धि तु प्रलयं जाति देहवे तदुत्तम विवान्दोकानमनां प्रतिपद्यते भजसी प्रलयं गत्वा कर्म संगसु जायते तथा प्रलीनस्तमसी मूढयो न सुजायते कर्मणः सुकृतस्याहो सात्विकं निर्मलं फलं रजसस्तु फलं दुःख न ज्ञानं तमसफलं सत्त्वा सञ्जायते ज्ञानं रजसो लोभैवते प्रमादमोहो तमसो भवतु ज्ञानमेव ऊर्ध्वं गच्छन्ति सत्त्वस्थामध्ये तिष्ठन्ति राजसा जघन्यगुणवृत्तिस्थाधो गच्छन्ति तामसा नान्यं गुणेभ्य कर्तारं यदा दृष्टानुपश्यति गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति गुणानेतानपि इत्यपि देहि देह समुद्भवान् जन्म मृत्युजरा दुःखैर्विमुक्तो मृतमाश्नुते अर्जुन उवाच कैर्लिङ्गे श्रीन्मुनानेतानतीको भवति प्रभो किमाचार कथं तैतांस्त्रीन्मुनानतिवर्तते श्रीभुवनुवच प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव न दृष्टिसं प्रवृत्तानि निवृत्तानि कांक्षति उदासीनवदासीनो गुणीर्योनविचार्यते गुणावर्तन्त इत्येव योऽवतिष्ठति मन्दते समदुःखसुखः स्वस्थ समदुष्टाश्मकाञ्चने तुल्यप्रिया प्रियो वीर तुल्यनिन्दात्मसंस्तुते मानापमानयोस्तु रिपक्षयो सर्वारम्भपरित्यवीणातीतसोच्यते मां चलो व्यभिचारेण भक्तियोगेन सेवते सगुणान् समति चैतान् ब्रह्मभूयाय कल्पते ब्रह्मणोऽधि प्रतिष्ठाः अमृतस्याव्ययस्य च शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च सुखस्यैकान्तिकस्य च ॐ तत्सदशिवभूतिविद्यायां भूशास्त्रे श्रीकृष्णार्जुनसंवादे गुणत्रयविभागे नाम दशः।